प्रियम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी मॉरिशस देशस्य द्विदिवसीयायां राजकीय यात्रायां पोर्ट लुईस नगराय अद्य प्रातः प्रस्थानं करिष्यति। स्वप्रस्थान वक्तव्ये प्रधानमन्त्री प्रावोचत् यत् मॉरिशस देशः एकः सागर समीपस्थः प्रतिवेशी अथ च हिन्द महासागरे एकः प्रमुखः सहभागी अफ्रीकीय महाद्वीपस्य प्रवेशद्वारम् अस्ति इति। श्रीमोदी अवोचत् यत् उभौ देशौ इतिहासेन संस्कृत्या सह सम्बद्धौ स्तः। प्रधानमन्त्रिणा अग्रे प्रत्यपादयत् असौ मॉरिशस नेतृत्वेण सह सहभागितायाः सर्वेषु क्षेत्रेषु उन्नतेः जनानां समृद्धेः च कृते तथा च हिन्द महासागर क्षेत्रस्य सुरक्षायाः विकासस्य च कृते चिरस्थायि मैत्रीपूर्ण सम्बन्धं सुदृढीकर्तुम् अवसरस्य प्रतीक्षायाम् अस्ति। श्रीमोदी अद्य सर शिवुरा सागर रामगुलाम सर अनिरुद्ध जगन्नाथाभ्यां श्रद्धांजलिं समर्पयितुं सर शिवसागर रामगुलाम बॉटनिकल गार्डन इत्याख्यं स्थलं प्रति यास्यति। प्रधानमन्त्री अस्मिन्नेव परिसरे एकं पादपारोपणम् अपि करिष्यति। तदनु प्रधानमन्त्री राष्ट्रपतिना धरम गोकुलेन सह मेलनं करिष्यति। अद्य सायंकाले एकस्मिन् सामुदायिक कार्यक्रमे असौ सहभागं विधास्यति। एतदनन्तरं श्रीमोदी स्वकीयेन मॉरिशस देशीयेन समकक्षेण नवीन चन्द्र रामगुलाम इत्येतेन सहापि वार्तालापं करिष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य पंजाब राज्यस्य केन्द्रशासित प्रदेशस्य चण्डीगढस्य च द्विदिवसीय यात्रायां भविष्यति। पंजाब प्रवासावधौ राष्ट्रपतिः केन्द्रीय विश्वविद्यालयस्य तथा च भटिंडा नगरे अखिल भारतीयायुर्विज्ञान संस्थानस्य दीक्षांत समारोहे भागं ग्रहीष्यति। एतयोः कार्यक्रमयोः राष्ट्रपतिना सह पंजाब राज्यस्य राज्यपालं गुलाब चंद कटारिया इत्येनं समेत्य अन्ये गणमान्य जनाश्च उपस्थिताः भविष्यन्ति। अत्रावधौ सर्वेषु आयोजनस्थलेषु सुरक्षाव्यवस्था सुदृढा जाता। विदेशमन्त्री डॉ एस जयशंकरः प्रतिपादितवान् यत् भारतार्मेनिया देशयोर्मध्ये सम्बन्धः इतिवृत्ते गहनो वर्तते। ह्यः नवदिल्ल्याम् अर्मेनियायाः विदेशमन्त्रिणा अरारत मिर्जोयान इत्यमुना सह सञ्जातोपवेशनावधौ डॉ जयशंकरः सूचितवान् यत् भारते प्रथमं अर्मेनियागतं वार्तापत्रं प्रकाशितम्। असौ कथितवान् यत् द्विपक्षीय व्यापारः रक्षासहयोगः च संवर्धितौ स्तः उभयोः देशयोर्मध्ये। उत्तर रेल विभागः होली पर्व समाश्रित्य यात्रिणां सुगमयात्रायै चतुश्शताधिकानि रेल यानानि प्रचालयति। ह्यः नवदिल्ल्यां वार्ताहरैः सह सम्भाषमाणः उत्तर रेल मार्गस्य मुख्य जनसम्पर्काधिकारी हिमांशु शेखर उपाध्यायः सूचितवान् यत् यात्रिणां सौकर्यार्थं विस्तृता व्यवस्था सम्पादितास्ति। असौ प्रत्यपादयत् यत् राष्ट्रिय राजधान्यां नवदिल्ली आनन्दविहार हजरत निजामुद्दीन रेलवे स्थानकेषु यात्रिणां कृते सुरक्षाव्यवस्था नियन्त्रणकक्षाः प्रतीक्षालयाश्च निर्मिताः सन्ति इति। विमेन्स प्रीमियर लीग इत्येतस्यां क्रिकेट मालिकायां मुम्बई इंडियंस दलेन गुजरात जायंट्स दलं ह्यः रात्रौ मुम्बय्यां नवधावनांकैः पराभूतम्। मुम्बई दलेन स्थापितानां अशीत्यधिकैकशत धावनांकानां लक्ष्यम् अनुसरता गुजरात दलेन सर्वेषां क्रीडकानां हानिपुरस्सरं केवलं सप्तत्यधिकैकशत धावनांकाः एव समर्जिताः इति वार्ताः।